इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम्। प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। सर्वकारेण वर्तमान वित्त वर्षाय प्रधानमन्त्री उज्ज्वला योजना उपभोक्तृभ्यः अनुदानस्य अनुवर्तनं स्वीकृतम्। अस्मिन् अनुमानित व्ययः 12,000 कोटिरूप्यकाणां भविष्यति। ह्यः नवदिल्ल्यां प्रधानमन्त्रिणः नरेन्द्रमोदिनः आध्यक्ष्ये मन्त्रिमण्डलस्य निर्णयानां विषये सूचयन् सूचना प्रसारणमन्त्री अश्विनी वैष्णवः अवदत् यत् अस्याः योजनायाः अन्तर्गतं 33,10,00,000 परिवाराः लाभान्विताः सञ्जाताः।
लाख घरों में उज्ज्वला के कारण परिवर्तन आया। करीब 2,200 रुपए की टोटल सपोर्ट मिलता है इस स्कीम में, तो आज कैबिनेट में फैसला लिया गया 12,060 करोड़ रुपए का सपोर्ट पीएम उज्ज्वला बेनिफिशियरीज के लिए 2025-26 फाइनेंशियल ईयर में दिया जाएगा। अब तक अगर हम देखें टोटल उज्ज्वला योजना में 52,000 करोड़ रुपए का बेनिफिट देश में लाखों करोड़ों परिवारों को मिल चुका है। इसका आज के फैसले से करीब 10,33,00,000 घरों में एक लाभ मिलेगा, एक बेनिफिट मिलेगा, जिससे पीएम उज्ज्वला को आगे बढ़ाने में मदद मिलेगी।
मंत्रिणा उक्तं यत् सार्वजनिक क्षेत्रस्य तैल विपणन संस्थानां कृते 33,000 कोटिरूप्यकाणां क्षतिपूर्तिः अपि सर्वकारेण अनुमोदिता अस्ति। श्रीवैष्णवः एतदपि सूचितवान् यत् सर्वकारेण बहुविषयकशिक्षायाः तथा च प्राविधिकशिक्षायोजनायां संशोधनविकासाय च 200,000,000,000 रुपयकाणां व्ययस्य आयव्यायिकसाहाय्याय अनुमतिः प्रदत्ता अस्ति इति। सः अवदत् यत् अस्याः योजनायाः उद्देश्यं प्राविधिकशिक्षायाः गुणवत्तायाः समानतायाः प्रशासनस्य च औन्नत्यं वर्तते। सर्वकारेण असम त्रिपुरा राज्ययोः कृते विद्यमानस्य केन्द्रीय क्षेत्रस्य विशेष विकास कोषस्य अन्तर्गतं 4 नूतनानां घटकानाम् अपि अनुमोदना कृता, यस्य आहत्य व्ययः 250,000 रुपयकाणि भविष्यति। प्रधानमन्त्री नरेन्द्रमोदी रूसदेशस्य राष्ट्रपतिना व्लादिमीर पुटिन इत्यनेन सह विस्तृतं वार्तालापम् अकरोत्। श्रीपुटिनेन यूक्रेन देशस्य विषये नवीनतमानां घटनाक्रमाणां विषये अवधानं प्रदत्तम्। राष्ट्रपतेः पुटिनस्य विस्तृतमूल्याङ्कनाय धन्यवादं प्रददता प्रधानमन्त्रिणा संघर्षस्य शान्तियुतसमाधानाय भारतस्य स्थिरस्थितिं पुनरुक्तम्। उभौ नेतारौ द्वैपाक्षिककार्यसूच्याः प्रगतिः अपि समीक्षितवन्तौ। एशियायाः बृहत्तमस्य 5.4 किलोमीटर परिमितस्य दीर्घस्य वस्तुवाहक रेलयानस्य रुद्रास्त्र इत्यस्य भारतीय रेलविभागेन सफल परीक्षणं कृत्वा नूतनं कीर्तिमतं विरचितम्। उत्तरप्रदेशस्य चन्दौलीनगरस्य गंजख्वाजा रेलस्थानकात् झारखण्डस्य गढ़वापर्यन्तं 90,200 किलोमीटर परिमित सुदीर्घयात्रा 10.5 निमेषाधिक 5 होरासु पूरितम्। दिल्ली विधानसभया 25,000,000 तमवर्षस्य विद्यालय शुल्क विनिमयन विधेयकं पारितम्, यस्मिन् शुल्क वृद्धि सम्बद्ध निर्णयेषु अभिभावकेभ्य वीटो इति शक्तिं प्रदाति, येन सुनिश्चितं भवति यत् विद्यालय प्रबन्धनानि एकाधिकारेण शुल्क वृद्धिं न आरोपयितुं शक्नुवन्ति। दिल्ल्याः शिक्षामन्त्री आशीष सूदः विधानसभायाम् अवदत् यत् यदि एकोऽपि अभिभावकः असहमतः भवति तर्हि शुल्कवृद्धेः प्रस्तावः स्वीकृतः न भविष्यति। अद्य भ्रातृभगिन्योः स्नेहद्योतकं रक्षाबन्धन पर्व अशेषे देशे सोल्लासं समायोज्यते। अवसरेऽस्मिन् भ्रातॄणां सुख समृद्धि सुरक्षा संशिन्यो भगिन्यस्तेषां करमूले चित्रविचित्रं रक्षासूत्रम् उपबध्नान्ति। अंडर 19 एशियाई मुष्टामुष्टि प्रतियोगितायाम् अद्य स्वस्व उपान्त्य चक्रीय क्रीडासु विजित्य 7 महिलाः समेत्य 10 भारतीयाः मुष्टामुष्टि क्रीडकाः बैंकॉक नगरे स्पर्धां करिष्यन्ति इति वार्ताः।